नमस्काराः अद्य वैयाकरणभूषणसारस्य धात्वर्थ प्रकरणे ऊनविंशः पाठः मार्च् मासस्य एकविंशः दिनाङ्कः येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नम् व्याकरणम् प्रोक्तम् तस्मै पाणिनये नमः वाक्यकारम् वररुचिम् भाष्यकारम् पतञ्जलिम् पाणिनिम् सूत्रकारम् च प्रणतोऽस्मि मुनित्रयम् श्रीलक्ष्मीरमणम् नौमि गौरीरमणरूपिणम् स्फोटरूपम् यतः सर्वम् जगदेतद्विवर्तते भूषणसारस्य धात्वर्थप्रकरणे आदौ कश्चन भागः अधीतः तत्र प्रथमकारिकया फलव्यापारयोर्धातुः इति आश्रयेत तिङस्मृताः फले प्रधानं व्यापारः तिङर्थस्य विशेषणम् इति वैयाकरणसिद्धान्तम् उक्त्वा अग्रे तस्य साधनार्थं प्रयतन्ते भट्टोजिदीक्षिताः. तत्र इदानीं भावनायाः आख्यातार्थत्वनिराकरणम् भावनायाः धात्वर्थत्वसाधनम् मीमांसकानां मते फलमात्रम् धात्वर्थः भावना आख्यातार्थः इति वदन्ति. तन्निराकृत्य भावनायाः धात्वर्थत्वम् साधयितुम् प्रयत्नः क्रियते. तत्र केचन उपायाः दृष्टाः अस्माभिः. फलमात्रस्य धात्वर्थत्वे ग्रामो गमनमान् इति प्रयोगापत्तिः. यतोहि गमनम् इति भावार्थकः प्रत्ययः, भावो नाम धात्वर्थः. यदि फलमात्रम् धात्वर्थः तर्हि गमनम् इत्यस्य संयोगः इत्येव अर्थः स्यात्. सतसंयोगः ग्रामे अपि अस्ति इत्यतः ग्रामो गमनवान् इति प्रयोगः स्यात्. वस्तुतस्तु फलम् तदनुकूलव्यापारश्च धात्वर्थः इति स्वीक्रियमाणे गमनम् इत्यस्य उत्तरदेशसंयोगानुकूलः व्यापारः अर्थः. स च ग्रामे नास्ति, चैत्रे एव अस्ति इत्यतः चैत्रो गमनवान् इत्येव प्रयोगः, न तु ग्रामो गमनवान् इति. किञ्च नव्यमीमांसकैश्चिरुच्यते फलव्यापारौ धात्वर्थः, किन्तु व्यापारानुकूला कृतिः कृतिरूपा भावना प्रत्ययार्थः. यथा नैयायिकाः तथा केचन नव्यमीमांसका अपि कथयन्ति आख्यातार्थस्य भावनायाः प्राधान्यम् इति चेत् शक्तिद्वयकल्पने गौरवम्. धातोः कस्मिंश्चिद्व्यापारे अर्थात् शरीरनिष्ठव्यापारे धातोः शक्तिः, पुनः आत्मनिष्ठव्यापारे अथवा कृत्याम् आख्यातस्य शक्तिः इत्यादि उभयत्र शक्तिकल्पने गौरवम्. तदपेक्षया सर्वविधोऽपि व्यापारः धातोरेव इति कथने लाघवम् इति वैयाकरणमतम्. किञ्च मीमांसकैः न्यायद्वयम् आश्रित्य भावनायाः आख्यातार्थत्वम् साध्यते. एकम् तु प्रत्ययार्थप्राधान्यन्यायः. प्रकृतिप्रत्ययौ सहार्थम् ब्रूतः, तत्र प्रत्ययार्थः प्रधानम् इति न्यायः तैरुच्यते. किन्तु अस्य न्यायस्य अङ्गीकारे पक्ववान् इत्यस्य पाकम् कृतवान् इति विवरणम् दीयते. तत्र प्रत्ययार्थस्य प्राधान्यत्वात् पाकम् इत्यत्र पदस्य अम् प्रत्ययस्य अर्थः कर्म, तस्य प्राधान्यम् भवति पाकम् इत्यत्र. कृतवान् इत्यत्र तु क्तवतु प्रत्ययार्थः कर्ता प्रधानः भवति. एवम् कर्म कर्ता. तत्र पक्ववान् इत्यत्र प्रकृतिभागस्य अर्थः कर्म, प्रत्ययभागस्य अर्थः कर्ता. परस्परम् अन्वयः कथम्? यत्र परस्पर अन्वयः भवति तत्रैव अयम् प्रधानः अयम् गौणः इति वक्तुम् शक्यते. प्रकृत्यर्थस्य प्रत्ययार्थस्य च परस्परम् अन्वयस्यैव अभावे प्राधान्यनिर्णयस्तु सर्वथा न सम्भवति. अतः अयन्न्यायः न युज्यत एव. स तु वस्तुतः औत्सर्गिकः विशेष्यत्वादिना बोधस्तु व्युत्पत्त्यनुरोधेन इति दृष्टम्. येषाम् यथा व्युत्पत्तिः तथा बोधः भवति. यथा तार्किकाः तार्किकानां प्रथमान्तमुख्यविशेष्यकः बोधः, एवं वैयाकरणानां व्यापारमुख्यविशेष्यकः बोधः. लक्षणाविचारे तार्किकाणां लक्ष्यतावच्छेदकप्रकारकः बोधः, आलङ्कारिकाणां तु शक्यतावच्छेदकप्रकारकः बोधः इत्येवं बोधे विशेष्यत्वादिकं तु व्युत्पत्त्यनुरोधेन भवति. अतः तत्र प्रत्ययार्थप्राधान्यन्यायः पुरस्कर्तुं न शक्यते. अत एव पाणिनिनापि प्रधानप्रत्ययार्थवचनम् अर्थस्यान्यप्रमाणत्वात् अशिष्यम्, प्रधानप्रत्ययार्थवचनं न वक्तव्यम् अथवा वक्तुं न शक्यते, यतोहि अर्थः अन्यप्रमाणकः, अन्येन प्रमाणेन लोकव्यवहारेण सिध्यति, व्युत्पत्त्या सिध्यति, न तु शास्त्रेण इति. अपरः न्यायः तैः उच्यते तदागमन्यायः, तदागमे हि तद्दृश्यते इति. आख्यातागमे भावनायाः प्राधान्येन प्रतीतिः, आख्याताभावे भावनायाः प्राधान्येन प्रतीतिः नास्ति इति ते दर्शयन्ति. यथा पचति इत्यत्र भवति, पाचकः इत्यत्र न भवति. किन्तु अयन्यायः पक्वम् इत्यादिषु अतिव्याप्तः. आख्यातस्य अभावेऽपि भावनायाः प्राधान्येन प्रतीतिः तत्र दृश्यते. पक्ववान् कृतवान् पाकम्, किं कृतं पक्वमित्यपि, किं कार्यं पचनीयं चेत्यादि दृष्टं हि कृत्स्वपि. एवमेव कृत् प्रत्ययाः कारकार्थेषु भवन्ति. यथा कर्मणि कर्मार्थे कार्यम् इति ण्यत् प्रत्ययः, पचनीयम् इति अनीयर् प्रत्ययः, इत्येवम् अन्येऽपि प्रत्ययाः सन्ति कर्मार्थे. करणार्थे ज्योतिष्टोमेन यजेत इत्यादिषु यजेश्च करणे इति करणार्थे प्रत्ययाः सन्ति. एवं सम्प्रदाने, अधिकरणे, विविधेषु कारकार्थेषु प्रत्ययाः विधीयन्ते. यदि क्रियात्वं नास्ति, यदि धातोः भावनार्थकत्वं नास्ति, तर्हि एतेषां प्रत्ययानां सम्भव एव नास्ति. यतोहि कारकाणां क्रियायाम् एव अन्वयः, परस्पर अन्वयः नास्ति इति नियमः. क्रियात्वमेव अवच्छेदकं, कारकान्वयितावच्छेदकं. तथा सति क्रिया यदि नास्ति, यदि क्रिया भावना वाच्या नास्ति, तर्हि कथं वा एते प्रत्ययाः भवेयुः. लिङ्गसङ्ख्यानुरोधात् कर्तुः वाच्यत्वम् आवश्यकम् इति चेत् तत्र वदन्ति कृदन्तेषु लिङ्गान्वयः अस्ति. पक्ववान्, पक्ववती, पक्ववत् एवं सङ्ख्यान्वयः दृश्यते. अतः कर्तुः वाच्यत्वम् आवश्यकम्, भावना आक्षेपाल्लभ्यते इति. किन्तु अयमेव वादः आख्याते नाम तिङन्तेऽपि वक्तुं शक्यते. आख्यातेऽपि सङ्ख्यान्वयः भवति, सङ्ख्यान्वयः कर्तरि एव भवति. अतः कर्तुः वाच्यत्वम् अङ्गीकर्तव्यं स्यात्, मीमांसकैस्तु नाङ्गीक्रियते. एवमेव कृदन्तेषु न केवलं लिङ्गसङ्ख्यान्वयः, कालकारकान्वयोऽपि अस्ति. यथा पक्ववान् इत्यत्र कर्तृकारकस्य एवं कालस्य अन्वयः भावनायां भवति. अतः भावनायाः अपि वाच्यत्वम् अङ्गीकर्तव्यम्. अर्थात् उभयत्र तिङन्ते कृदन्ते स्थितिः भिन्ना नास्ति. यथा कर्तरि केषाञ्चित् अन्वयः, एवं भावनायामपि केषाञ्चन धर्माणाम् अन्वयः भवति. अतः उभयत्रापि भावनायाः कर्त्रादीनाञ्च वाच्यत्वम् अपेक्ष्यते. तत्र उभयसाधारण्येन यत् धातुः अस्ति, अतः पचति इत्यत्र अपि धातुः अस्ति, पक्वम् इत्यत्रापि धातुः अस्ति, पक्ववान् इत्यत्र सर्वसाधारण्येन धातोः एव भावनावाचकत्वं स्वीकर्तव्यम् इति वैयाकरणानां मतम्. किञ्च भावनायाः वाच्यत्वे हरिणात्रातः इत्यादिषु समासः न स्यात्. कर्तृकरणे कृता बहुलम् इत्यनेन कर्तुः करणस्य च समासः विधीयते. क्रियायाः अवाच्यत्वे एतेषां कारकत्वं नास्ति, कारकत्वाभावे परस्पर अन्वयः न भवति, क्रियायामेव अन्वयः. अतः समासः न स्यात्, सामर्थ्यं नास्ति इत्यतः समासः न स्यात्. अध्याहृतक्रिया अगतिकगत्या दध्योदनः इत्यादिषु एव अङ्गीक्रियते. अत्र तु साक्षात् अन्वयसम्भवे तस्य अङ्गीकारः अन्याय्यः इत्यादि प्रतिपादितम्. अपि च भावनायाः तिङर्थत्वे निजन्तप्रयोगेषु अनुपपत्तिः दर्शिता. घटं भावयति इतिवत् घटो भवति इत्यत्रापि द्वितीया स्यात्. यतोहि यदि भावना आख्यातार्थः, तर्हि धात्वर्थाश्रयः कर्म, धात्वर्थः फलम्, उत्पत्तिः. यथा भावयति इत्यत्र अस्ति, तथा भवति इत्यत्रापि उत्पत्तिरूपः, उत्पत्तिरूपं कर्मत्वं घटे अस्ति इत्यतः द्वितीया स्यात्। कर्तृसंज्ञया कर्मसंज्ञायाः बाधा इति चेत् कर्तृसंज्ञा कथमुच्यते? वैयाकरणमते धात्वर्था व्यापाराश्रयत्वं कर्तृत्वम्। मीमांसकमते आख्यातार्थव्यापाराश्रयत्वं कर्तृत्वम् इत्युक्ते देवदत्तः विष्णुमित्रेण पाचयति अथवा विष्णुमित्रेण गमयति इत्यादि निजन्तप्रयोगेषु प्रयोज्यकर्तुः कर्तृत्वं न स्यात्, यतोहि तत्र आख्यातेन प्रयोजकव्यापारः एव उच्यते। प्रयोज्यव्यापारस्य अवाच्यत्वे तस्य कर्तृत्वं न स्यात्। यद्यपि व्यापारद्वयम् आख्यातार्थः इति स्वीक्रियते, प्रयोजकप्रयोज्य उभयोर्व्यापारः व्यापारद्वयम् आख्यातार्थः तेन उभयोः कर्तृत्वम् इति स्वीक्रियते चेदपि देवदत्तः विष्णुमित्रेण ग्रामं गमयति इत्यादिषु गमिधातुनिरूपितं कर्तृत्वं विष्णुमित्रस्य न स्यात्, एवञ्च ग्रामस्य गमिधातुनिरूपितं कर्मत्वं न स्यात्। तथा यदि नास्ति तर्हि गत्यर्थकर्मणि द्वितीया चतुर्थ्यौ इति सूत्रेण गत्यर्थकर्मणः चतुर्थी विभक्तिः ग्रामाय गमयति इति न स्याद् इत्येवं बहुविधाः दोषाः तत्र प्रदर्शिताः। किञ्च आख्यातशून्ये कर्तृत्वं न स्यात्। यथा देवदत्तः पक्ता इत्यस्ति, तत्र पक्ता इत्यत्र देवदत्तस्य कर्तृत्वं कथम्? यस्मिन् प्रयोगे तिङ् आख्यातः दृश्यते तत्र तदर्थ आख्यातार्थव्यापाराश्रयस्य कर्तृत्वं भवति। यत्र तु आख्यातः नाम तिङ्प्रत्ययः नास्ति तत्र कर्तृत्वं न स्यात् इत्येवं प्रकारेण बहवः दोषाः प्रदर्शिताः भावनायाः धात्वर्थत्व अस्वीकारे। अग्रे पठामः। सूत्र अनुपपत्तिमपि मानत्वेन प्रदर्शयन् उक्तार्थस्य स्व उत्प्रेक्षितत्वं निरस्यति किञ्चेति। किं कार्यं पचनीयं चेत्यादि दृष्टं हि कृत्स्वपि किञ्च क्रियावाचकतां विना धातुत्वमेव न इति कारिकायाः द्वितीयार्थः। तत्र सूत्र अनुपपत्तिम् वस्तुतस्तु मीमांसकैः किमुच्यते, यास्कवचनं प्रामाण्येन स्वीक्रियते भावप्रधानमाख्यातं, तत्र महर्षिवचनं प्रमाणमस्ति इति। अत्रापि महर्षिवचनं नाम पाणिनेः सूत्रमपि प्रामाण्येन वर्तते इति इदानीं प्रदर्शयति। सूत्र अनुपपत्तिं भावनायाः तिङर्थत्वे इदं सूत्रम् अनुपपन्नं स्यात् इति। सूत्र अनुपपत्तिम् अपि मानत्वेन प्रदर्शयन्, मानत्वेन नाम प्रमाणत्वेन प्रदर्शयन् उक्तार्थस्य भावना धात्वर्थः न तु आख्यातार्थः इति उक्तस्य अर्थस्य स्व उत्प्रेक्षितत्वम्। स्व नाम भट्टोजीदीक्षितः, तेन उत्प्रेक्षितम् आधुनिक उत्प्रेक्षितः अर्थः, न तु पुरातनैः महर्षिभिः कथितः इति। स्व उत्प्रेक्षितत्वं निरस्यति, निराकरोति किञ्चेति। किञ्च क्रियावाचकतां विना धातुत्वमेव न इति कारिकायाः उत्तरार्धमस्ति। तत्र धातुसंज्ञाविधायकं सूत्रं भूवादयो धातवः इति। तत्र भूश्च वाश्च इति द्वन्द्वः, भूवादयः इत्यस्ति सूत्रं। भू वा आदयः धातवः, कः अर्थः? भूश्च वाश्च भूवौ धातुद्वयं निर्दिष्टमस्ति। सामान्यतः भ्वादयः इति उच्यते, अर्थात् भू इत्यारभ्य पठिताः भादयः, किन्तु सूत्रमस्ति भूवादयः, तत्र भू वा इति धातुद्वयमस्ति। भूश्च वाश्च भूवौ, भूवौ आदी येषां ते भूवादयः, ते धातवः इति सूत्रार्थः। आदिशब्दयोः व्यवस्था प्रकारकवाचिनोः एकशेषः। तत्र आदी इत्यत्र आदिशब्दद्वयमस्ति, आदिश्च आदिश्च आदी, आदिश्च आदिश्च आदी, ततो भूवौ आदी येषां ते भूवादयः। तत्र आदिशब्दद्वयमस्ति, कः अर्थः? व्यवस्था प्रकारवाचिनोः एकशेषः इत्युक्तम्। व्यवस्था नाम आर्डर्, भू इत्यारभ्य ये पठिताः, भू इति प्रथमः, एध इति द्वितीयः, स्पर्ध इति तृतीयः, एवं धातुपाठस्य क्रमे, क्रमः व्यवस्था इत्यनेन क्रमः उच्यते, अतः धातुपाठे भू इत्यारभ्य ये ये शब्दाः पठिताः, भूः आदिः येषाम्, आदिः नाम प्रथमः, द फर्स्ट, अतः सेकेंड थर्ड इत्येवं ये पठिताः ते भूवादयः. प्रकारवाचिनोः, प्रकारः इत्यत्र टैप् इत्यर्थः, टैप् नाम तत् सदृशाः, वा प्रकारकाः नाम वा सदृशाः, सादृश्यं कथं क्रियावाचकत्वेन, तदेव उच्यते आदिशब्दयोः व्यवस्था प्रकारकवाचिनोरेकशेषः, आदिश्च आदिश्च आदी, ततो भूवौ आदी येषां ते भूवादयः. कः अर्थः? भूप्रभृतयः, भू इत्यारभ्य क्रमेण पठिताः वा सदृशाः धातवः इत्यर्थः. धातुः धातुसंज्ञाविधायकं तत्सूत्रं, भूवादयो धातवः, के धातवः? भूप्रभृतयः, भू इत्यारभ्य क्रमशः पठिताः वा सदृशाश्च ये सन्ति ते एव धातवः. सादृश्यं नाम किम्? कथं सादृश्यं? तच्च क्रियावाचकत्वेन, क्रियावाचकत्वेन सादृश्यं, तथा च क्रियावाचकत्वे सति भ्वादिगणपठितत्वं धातुत्वम् इति पर्यवसन्नम्. सो द एक्चुअल डेफिनेशन ऑफ अ धातु इज दट विच इज अ क्रियावाचक, दट विच एक्सप्रेसेस एन एक्शन एंड इज काउंटेड इन द भ्वादिगण, इट इज लिस्टेड इन दट गण. So, which is both conveying the kriya and being included in that list is both essential for something to be considered a dhatu. Atra kriyavachitva matroktau. Kimartham evam vaktavyam? Kriyavachakatvam dhatutvam iti vadamaha. Ye ye kriyam bodhayanti te sarve dhatavaha iti chet. Atra kriyavachitva matroktau. Varjanadi rupa kriyavachake हिरुक् नाना इत्यादौ अतिव्याप्तिः. वर्जनादि रूप क्रियावाचके हिरुक् नाना इत्यादि अव्ययानि सन्ति. वर्जयित्वा इत्यर्थः, वर्जनं नाम क्रिया टु टु लीव असाइड समथिंग और टु सेपरेट समथिंग, टु लीव आउट समथिंग इत्यर्थः. अतः वर्जनादि रूप क्रियावाचके हिरुक् नाना इत्यादौ अतिव्याप्तिः. सो इफ यू जस्ट से क्रियावाचित्वं धातुत्वं तदा एतेषामपि धातुत्वं स्यात्. एते भ्वादिगणे न पठिताः किन्तु क्रियावाचकाः सन्ति. अतः अत्र क्रियावाचित्वमात्रोक्तौ वर्जनादिरूपक्रियावाचके हिरुक् नाना इत्यादौ अतिव्याप्तिः इति भ्वादिगणपठितत्वम् उक्तम्. अत एव द्वितीयः अपि नियमः, क्रियावाचकत्वं स्यात्, भ्वादिगणपठितत्वमपि स्यात्, इत्यादौ अतिव्याप्तिः इति भ्वादिगणपठितत्वम् उक्तम्. तावन्मात्रोक्तौ च, अस्तु तर्हि क्रियावाचकत्वम् इत्येव मास्तु, भ्वादिगणपठितत्वं धातुत्वम् इत्येव वदामः. सो देन् लेट्स् रिमूव् क्रियावाचक, लेट्स् देन् जस्ट् से व्हाटेवर् इस् कौण्टेड् और् लिस्टेड् अमङ्ग् द भ्वादिगण इस् अ धातु. भ्वादिगणे ये ये शब्दाः पठिताः ते सर्वे धातवः इति वदामः इति चेत् तावन्मात्रोक्तौ च आह. तावन्मात्रोक्तौ नाम भ्वादिगणपठितत्वमात्रम्, भ्वादिगणपठितत्वं धातुत्वम् इत्येतावन्मात्रोक्तौ किं भवति? सर्वनामाव्ययादीनां यावादीनां प्रसङ्गतः न हि तत्पाठमात्रेण युक्तमित्याकरे स्फुटम्. अत्र दोषः अस्ति, स्फुटम् इति स्यात्. किं भवति? सर्वनाम अव्ययादीनां या वा आदीनां प्रसङ्गतः न हि तत्पाठमात्रेण युक्तम्. तत्पाठमात्रेण भ्वादिगणपठितत्वं धातुत्वम् इत्येव तावन्मात्रेण न युक्तम्. किमर्थम्? सर्वनामाव्ययादीनां यावादीनां प्रसङ्गतः. सर्वनाम पदानि सन्ति, यथा यद् शब्दः अस्ति, यद् तद् यद् एतद्, तस्य स्त्रीलिङ्गे प्रथमैकवचने या इति रूपम्, या देवी सर्वभूतेषु इत्यादिषु या इति रूपम्.
या प्रापणे इति धातुरपि अस्ति, याति यातः यान्ति. इदानीं तथैव अव्ययादीनां वा गतिगन्धनयोः इति धातुः अस्ति, वाति वायुः वाति, वाति वातः वान्ति इति वा धातुः. विकल्पार्थकः वा शब्दोऽपि अस्ति, एतत् तद् वा इति विकल्पार्थे अपि वा शब्दः अस्ति. इदानीं यदि भादिगणपठितत्वं धातुत्वं तर्हि या इति वा इति च धातुगणे पठ्यते, धातुपाठे अस्ति. तर्हि यच्छब्दस्य स्त्रीलिङ्गे प्रथमैकवचने या इति भवति किल, तस्यापि धातुत्वं स्यात्. एवमेव विकल्पार्थकस्य वा शब्दस्यापि धातुत्वं स्यात्. गणपठितत्वमात्रोक्तौ सर्वनाम अव्ययानामपि धातुत्वं स्यात्. अस्तु, धातुत्वम् अस्ति चेत् कः दोषः? तथा च याः पश्यसि इत्यादौ आतो धातोः इति आकारलोपापत्तिः. आकारान्तः यः धातुः तदन्तस्य भस्य अङ्गस्य लोपः स्यादिति सूत्रार्थः. आतो धातोः आकारान्तः धातुः तदन्तस्य अङ्गस्य लोपः. याः पश्यसि, या शस् इत्यस्ति, शसि अस् इति शिष्यते, या अस् इति स्थ्यते, भसंज्ञा अस्ति, आकारान्तः धातुः. एतत्तु स्त्रीलिङ्गस्य रूपं स्मर्तव्यं, न तु धातोः. या इति यच्छब्दस्य स्त्रीलिङ्गस्य द्वितीया विभक्तौ बहुवचने, या अस् इति स्थिते, यदि अस्य धातुत्वम् अस्ति, भ्वादिगणपठितत्वम् अस्ति इत्यतः यदि धातुत्वम् अङ्गीक्रियते तर्हि अत्र आकारलोपप्रसङ्गः. ननु लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्, ग्रहणात् न सर्वनाम्नो ग्रहणम्, तस्य लाक्षणिकत्वाद् इत्यतः आह वेत्यादि. कश्चन न्यायः अस्ति अथवा परिभाषा, लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्. प्रतिपदोक्तम् इत्युक्ते स्वतः सिद्धं किञ्चिद् रूपम्. लाक्षणिकं नाम शास्त्रेण निष्पन्नम्. अत्र पश्यामः, या इति यः धातुः अस्ति, या प्रापणे इति, सः प्रतिपदोक्तः. सो इट् इस् ओरिजिनली स्टेटेड् एस् या, किन्तु सर्वनाम या इति यदस्ति तत्तु लाक्षणिकं. यद् इति प्रातिपदिकं, तस्मात् त्यदादीनामः इत्यनेन अत्वं विधीयते, पुनश्च अजाद्यतष्टाप् इत्यनेन टाप् प्रत्ययः विधीयते, ततः या इति निष्पद्यते. अतः अत्र नाम स्त्रीलिङ्गे या इति उच्यते, तत्र या रूपं लाक्षणिकं नाम लक्षणेन शास्त्रेण निष्पन्नम्. या प्रापणे इत्यत्र तु प्रतिपदोक्तम्. अनया परिभाषया लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम् इति परिभाषा अस्ति. अतः या इति धातुपाठे कस्य ग्रहणम्? या इति प्रतिपदोक्तस्य ग्रहणं भवति वा लाक्षणिकस्य ग्रहणं भवति वा इति चेत् प्रतिपदोक्तस्यैव ग्रहणं भवति. अतः सर्वनाम्नः ग्रहणं न भवति, चिन्ता नास्ति इति चेत् अत आह वेत्यादि. सर्वनामाव्ययादीनां या वादीनां प्रसङ्गतः. ननु लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणात् न सर्वनाम्नः ग्रहणम्, तस्य लाक्षणिकत्वाद् इत्यत आह वेत्यादि. अव्यये वा इत्यादौ अतिप्रसङ्गः. वा इत्यादौ तु अतिप्रसङ्गः अस्त्येव, यतोहि वा इति धातुरपि प्रतिपदोक्तः, अव्ययमपि प्रतिपदोक्तम्. सो इट् इस् नाट् ए डिरैव्ड् फार्म् लैक् या. या इत्यस्य लाक्षणिकत्वेऽपि वा विकल्पार्थे वा इति यद् अव्ययं प्रयुज्यते तत्तु प्रतिपदोक्तमेव. अव्यये वा इत्यादौ अतिप्रसङ्गः, तादृशस्यैव गणे पाठेन निर्णय असम्भवात्. सो अत्र लक्षणप्रतिपदोक्तन्यायः प्रयोक्तुं न शक्यते. तथा च विकल्पार्थकः वाति इति प्रयोगः स्यात्. वाति इत्यस्य कः अर्थः? वायुः वाति, गच्छति अथवा गन्धं वहति इत्यर्थः. किन्तु विकल्पार्थे अपि वाति इति प्रयोगः स्यात् यदि अस्य अव्ययस्य धातुत्वम्. तथा च विकल्पार्थकः वाति इति प्रयोगः स्यात् इति भावः. न च गतिगन्धनाद्यर्थनिर्देशः नियामकः. गणधातुपाठे अर्थस्तु निर्दिश्यते भूसत्तायाम् एधवृद्धौ एवं वा गतिगन्धनयोः इत्यस्ति. अतः गत्यर्थकस्य गन्धनार्थकस्यैव धातुत्वम्, विकल्पार्थः तत्र न निर्दिष्टः, अतः तस्य धातुत्वं नास्ति इति वक्तुं न शक्यते. न च गतिगन्धनाद्यर्थनिर्देशः नियामकः. तस्य अर्थ अनादेशनाद् इति भाष्यपर्यालोचनया आधुनिकत्वलाभात्. धातुपाठे अर्थनिर्देशः आधुनिकः इति सिद्धान्तः. धातुपाठः पाणिनिना कृतः, सो द लिस्ट् आफ् धातुस् इस् पाणिनीस्. किन्तु तत्र अर्थनिर्देशः यः अस्ति प्रसिद्धः, दीस् डेस् वी सी इट् ओन्ली वित् द अर्थनिर्देश, भूसत्तायां मेधवृद्धौ इत्यादि, सः अर्थनिर्देशः आधुनिकः इति अङ्गीकुर्वन्ति. आधुनिकः नाम पश्चात्कालिकेन केनचिद् वैयाकरणेन कृतः. अत एव तदतिरिच्य अन्येष्वर्थेष्वपि धातूनां प्रयोगः अस्ति. अतः पाणिनिना क्वचिदेव अर्थनिर्देशः कृतः, सर्वेषां धातूनाम् अर्थनिर्देशः न कृतः इति सिद्धान्तः. तत्र भाष्यम् अपि अस्ति अर्थ अनादेशनात्, अर्थस्य अनुक्तत्वाद् इत्यादि. अतः न च गतिगन्धनाद्यर्थनिर्देशः नियामकः, तस्य अर्थ अनादेशनाद् इति भाष्यपर्यालोचनया आधुनिकत्वलाभात्. अतः अर्थनिर्देशः नियामकः भवितुं नार्हति. वा इति गणे अस्ति चेत् तस्य धातुत्वम् इति स्यात्. तद्वारणार्थं किं क्रियते? क्रियावाचकत्वे सति गणपठितत्वं धातुत्वम् इति उभयमपि आवश्यकम्. यदि केवलं क्रियावचनत्वं धातुत्वम् इत्युच्यते तर्हि हिरुक् नाना इत्यादीनामपि धातुत्वं स्यात्. यदि भ्वादिगणपठितत्वं धातुत्वम् इति केवलम् उच्यते तर्हि या वा इत्यादीनामपि धातुत्वं स्यात्. उभयम् आवश्यकं, क्रियावचनत्वे सति भ्वादिगणपठितत्वं, तथा सति हिरुक् नाना इत्यादीनां न भवति यतोहि ते गणे न पठिताः. या वा इत्यादीनामपि न भवति यतोहि ते क्रियावाचकाः न इति अस्याः कारिकायाः अर्थः. सर्वनामाव्ययादीनां यावादीनां प्रसङ्गतः न हि तत् पाठमात्रेण युक्तमित्याकरे स्फुटम्. आकरे नाम भाष्ये स्पष्टम् इत्यर्थः. भाष्ये भुवादयो धातवः इत्यत्र बहुधा चर्चां कृत्वा क्रियावचनाः क्रियावचनत्वे सति द्वादिगणपठितत्वं धातुत्वम् इति निर्णीतम्. अत एव सिद्धान्तकौमुद्यामपि भुवादयो धातवः इत्यस्य अर्थकथने क्रियावाचिनः भ्वादयः धातुसंज्ञाः स्युः इत्युच्यते. उभयमपि अस्ति तत्र. तत्र न ज्ञायते कथं क्रियावाचिनः इति नास्ति, सूत्रे तु नास्ति, किन्तु भू वा इति धातुद्वयं तदर्थमेव निर्दिष्टम्. नो चेत् केवलं भ्वादयः धातवः, भू इत्यादि पठिताः धातवः इति नोक्तम्. वा इति तत्रापि विशिष्टः धातुः. वा इस् नाट् द सेकेण्ड् धातु इन् द धातु पाठ. इट् अक्कर् समवेर् इन् द अदादिगण. इट् इस् नाट् इवन् द फस्ट् धातु इन् द अदादिगण. सम् से भू इस् रेप्रेसेण्टेटिव् आफ् द भ्वादिगण अण्ड् वा इस् रेप्रेसेण्टेटिव् आफ् द अदादिगण एट्सेट्रा. दट् इस् ट्रू, बट् स्टिल् वा इति अदादिगणे अपि प्रथमः धातुः न. सो वै डिड् हि टेक् वा स्पेसिफिकली? बिकास् इट् इस् अन् आम्बिग्युयस् केस्. वा इति धातुरपि अस्ति, अधातुः विकल्पार्थकः अपि अस्ति. अतः तत्र वा इति विशिष्यनिर्देशः क्रियावचनत्वं बोधयितुम् एव इति सिद्धान्तः. अतः भूवादयो धातवः इति प्रामाण्येन इति सूत्रप्रामाण्येनापि क्रियावचनः धातुः इत्युक्ते भावना वाच्या इत्येव किल अर्थः. स एव अर्थः साक्षात् पाणिन्या इव उक्तः इति प्रतिपादितम्. आकरम् मीन्स् मैन्, अ गोल्ड् मैन्. सो महाभाष्यम्, यस्, इन् आल् दीस् टेक्स् यूश्वलि आकर रेफर्स् टु भाष्य. मेनि टैम्स् आकर भाष्य वित् कैयट इस् रेफर्स् टु अस् द आकर. दट् इस् द सोर्स्. आकर इस् द सोर्स् आफ् द मैन्. सो भाष्य इस् अवर् प्रमाण फार् एव्रिथिङ्ग्. ननु अस्तु क्रियावाचकत्वे सति गणपठितत्वं धातुत्वम्. सो नौ द मीमांसकास् कम् डौन् अ स्टेप्. ओके, तदपि स्थापयन्तु. क्रियावचनवाचकत्वे सति गणपठितत्वं धातुत्वम् इति अङ्गीकुर्मः. किन्तु क्रिया नाम किम्? भवन्तः वदन्ति क्रिया नाम व्यापारः इति. वयं वदामः क्रिया च धात्वर्थः एव न व्यापारः. सो क्रिया नाम का? क्रियते, निष्पाद्यते इति क्रिया इति व्युत्पत्त्या क्रिया नाम फलम् इति ते वदन्ति. सो दे आर्ग्यू दिस् वन् ऐ मीन् आल्मोस्ट् अपियर्स् लैक् द सेक् सेयिङ्ग् सम्थिङ्ग् फार् द सेक् आफ् आर्ग्युमेण्ट्. यतोहि क्रियाशब्दस्य अर्थः अत्यन्तं प्रसिद्धः, व्यापारः इत्यर्थे एव प्रयोगः. तथापि क्रियते नाम निष्पाद्यते इति क्रिया इति व्युत्पत्त्या क्रिया इत्यनेन फलमेव उच्यते. तथा च क्रियावाचकत्वं नाम धातुत्वं नाम धात्वर्थफलवाचकत्वं. सो दट् विच् एक्स्प्रेसस् द धात्वर्थ विच् इस् ओन्ली फल, तदेव धातुत्वं. क्रिया च धात्वर्थः एव. क्रिया नाम का? धात्वर्थः क्रिया इति. स च धात्वर्थः फलमात्रं, न तु व्यापारः. क्रिया च धात्वर्थ एव न व्यापारः इति आशङ्कां समाधत्ते. एवञ्च मीमांसकाः वदन्ति एवञ्च फलमात्रवाचकानां पचादीनां धातुसंज्ञा सिद्ध्यति. एवञ्च क्रियावाचकत्वे सति गणपठितत्वम् इति भवतु, किन्तु तत्र क्रियाशब्देन फलं धात्वर्थः यत् फलं तदेव उच्यते. तथा च तेषां धातुसंज्ञा अपि सिद्ध्यति, भावनायाः वाच्यत्वं तु न सिद्ध्यति इति पूर्वपक्षः. ननु अस्तु क्रियावाचकत्वे सति गणपठितत्वं धातुत्वं, क्रिया च धात्वर्थ एव न व्यापारः इति आशङ्कां समाधत्ते. अग्रिमकारिका, धात्वर्थत्वं क्रियात्वं चेत् धातुत्वं च क्रियार्थता अन्योन्यसंशयस्पष्टः, तस्मादस्तु यथाकरम्. धात्वर्थत्वं क्रियात्वं चेत् धातुत्वं च क्रियार्थता अन्योन्यसंशयस्पष्टः, तस्मात् यथाकरम् अस्तु. कः अर्थः? किमुच्यते भवद्भिः? क्रियात्वं नाम धात्वर्थत्वं. धात्वर्थः फलं, तदेव क्रिया इत्युच्यते. क्रियात्वं नाम धात्वर्थत्वम्. अतः क्रिया नाम, क्रियात्वं नाम किम्, क्रिया नाम का इति ज्ञातुं धात्वर्थः ज्ञातव्यः. अस्तु, धात्वर्थः कः? धातुः नाम कः? क्रियावाचकत्वे सति भ्वादिगणपठितत्वं धातुत्वम् इत्युच्यते. अतः धातुत्वं ज्ञातुं क्रियायाः ज्ञानम् अपेक्षितम्, क्रियां ज्ञातुं धात्वर्थस्य ज्ञानम् अपेक्षितम् इति अन्योन्याश्रयः भवति. सो यु आर् क्रियेटिङ्ग् अन्योन्यसंशयस्पष्टः. तदेव उच्यते, यदि क्रियात्वं धात्वर्थत्वमेव, धात्वर्थत्वमेव क्रियात्वम् इति यदि उच्यते, तर्हि धातुत्वग्रहे नाम धातुत्वस्य बोधे धातुत्वं नाम किम् इति ज्ञातुं तदर्थत्वरूपक्रियात्वग्रहः, धात्वर्थत्वरूपक्रियायाः ज्ञानम् अपेक्षितम्. क्रियात्वग्रहे च तदवच्छिन्नवाचकत्वघटितधातुत्वग्रहः. धातुत्वं किम् इति ज्ञातुं धातुत्वग्रहे सति धातुत्वं यदा ज्ञायते तदा तदर्थत्वरूपक्रियात्वग्रहः. धात्वर्थः क्रिया, क्रिया नाम का इति ज्ञायते. ग्रहः इत्यनेन अत्र बोधः इत्यर्थः. यदा धातुत्वं किम् इति अवगम्यते अथवा बुध्यते तदा धात्वर्थत्वरूपक्रियात्वम् अवगम्यते. क्रियात्वग्रहे च क्रियात्वं यदा अवगम्यते तदा तदवच्छिन्नवाचकत्वघटितधातुत्वग्रहः. तदवच्छिन्नं नाम क्रियात्वावच्छिन्नवाचकत्वं, क्रियावाचकत्वं किल. क्रियावाचकत्वं नाम क्रियात्वावच्छिन्ना क्रिया, तद्वाचकत्वं धातुत्वम्. अतः तदवच्छिन्नवाचकत्वघटितधातुत्वग्रहः. अर्थात् धातुत्वे अवगते क्रियात्वं किम् इति ज्ञायते, क्रियात्वे अवगते धातुत्वं किम् इति ज्ञायते इति अन्योन्याश्रयः इति ग्रहपदं पूरयित्वा व्याख्येयम्. सो द अन्योन्यसंशय इस् इन् अण्डर्स्टाण्डिङ्ग्, नाट् इन् जस्ट् बीङ्ग्. ओके, धातुत्वं क्रियात्वं भवतु, क्रियात्वं धातुत्वं भवतु इति चेत् तत्र उच्यते अन्योन्याश्रयः कुत्र बाधकः इति चेत् अन्योन्याश्रयस्य उत्पत्तौ ज्ञप्तौ वा प्रतिबन्धकत्व अभ्युपगमेन अन्योन्याश्रयः दोषः. So anyonyashraya is a dosha which is accepted across all shastras. Kaha doshaha? Parasparasmad utpattehe pratibandhakaha. You cannot say that A is born from B and B is born from A. So that is anyonyashraya. Utpattehe. Parasparasmad utpattehe. So if you are saying A is born from B and B is born from A, that is dosha because anyonyashraya. So anyonyashraya being originating from each other is a dosha. Or parasparasmat jnanasya, understanding due to each other. So if you understand A, you understand B. If you understand B, you understand A. Ityasti chet saha anyonyashrayaha doshaha natu kevalam sthitihi. So why he says is grahapadam purayitva vyakhyayam. So if you are just stating that A exists and B exists, if A exists then B exists, if B exists then A exists, so their existence might be mutually requiring each other, that is not a dosha. So anyonyashraya is not a dosha. Parasparasya sthitehe. So if you are saying A exists when B exists or B exists when A exists, so parasparam ashritya sthitihi asti che doshah na. So two things can be mutually can exist with mutual dependence, but they cannot be generated with mutual dependence, or they cannot be understood with mutual dependence. Clear? Anyonyashraya is a dosha only when the anyonyashraya is for the utpatti or for jnana, not for sthiti. So there can be two things which exist depending on each other. But if you are saying something, I mean two things are born out of each other, it is a dosha. If you are saying two things are understood through each other, then it is a dosha, not just sthiti. So similarly here, you say dhatvarthatvam is kriyatvam and kriyatvam is dhatvarthatvam. Uvayoho yadi sthitihi parasparashrayena uchyate, tarhi tatra doshaha na. But atra tatha na. Avagamane dhatvartham kriyatvam namakim iti avagantum dhatutvam avagantavyam. Dhatutvasya avagamane kriyatvasya avagamanam apekshitam ityataha doshaha taeva grahapadam purayitva vyakheyam. Grahaha nama bodhaha. Jnanam parasparashrayam asti ataeva doshaha iti kaundabattena pratipadyate. Dhatutva grahe dhatutvasya avagamane athava bodhe tadarthatva rupa kriyatva grahaha. Yada dhatutvam budhyate tadaiva kriyatvam budhyate. Yada kriyatvam budhyate kriyatva grahecha tada dhatutvam budhyate iti anyonyashrayaha iti grahapadam purayitva vyakheyam. Grahaha nama jnanam avabodhaha iti yathashrute no chet dhatvarthatvam kriyatvam chet dhatutvam kriyarthata chet kodoshaha astu parasparashrayatvena stitihi astu iti syad atayeva grahapadam purayitva vyakheyam yathashrute cha anyonyashrayasya utpattau gyaptau va pratibandhakatva abhyupagamena asangatyapattehe. So anyonyashraya is a pratibandhaka not for sthiti, only for utpatti or for gyapti. Gyapti is jnana. So anyonyashraya is dosha or pratibandhaka for mutual generation or for mutual understanding, not for mutual existence. Atra tu paraspara jnanasya pratibandhakam anyonyashrayaha atayeva dhatvarthatvam kriyatvam iti angikartum na shakyate. It's very similar to the anyonyashraya we see in halantyam and adirantyena saheta. If you remember the Siddhanta Kaumudi, the first sutra where you say hal hali antyam, hal antyam hal nama, the final hal is called it. Okay, so there to understand hal you need to understand what is adirantyena saheta. But in adirantyena saheta, to understand it, you need to understand halantyam. So tatravi paraspara jnane anyonyashrayaha pratibandhakam bhavati. Ateva halantyam ityasya avrittihi kriyate. क्लियर स्पष्टम् अस्तु नच सो एवम् उक्तम् धात्वर्थत्वं क्रियात्वं चेत् धातुत्वं च क्रियार्थता अन्योन्य संशय स्पष्टः तस्मादस्तु यथाकरम् अतः यथाकरम् नाम क्रियावचनत्वे सति भादिगणपठितत्वम् इत्युच्यते तत्र क्रिया नाम व्यापारः एव न च धात्वर्थत्वम् इति न च अन्यतमत्वं धातुत्वं भूवादयः इत्यस्य वैयर्थ्यापत्तेः इत्यभिप्रेत्य आह अस्तु तस्माद् अस्तु यथाकरम् इति किमुच्यते अन्यतमत्वं धातुत्वम् इति क्रियात्वं नाम धात्वर्थत्वम् इत्युच्यते तत्र धात्वर्थः नाम कः धातुः नाम क्रियावाचकत्वे सति द्वादिगणपठितत्वं धातुत्वम् इति मास्तु तदैव किल अन्योन्याश्रयः सो फार् क्रियात्व यु आर् डिफैनिङ्ग् यूसिङ्ग् धातु एण्ड् धातु यु आर् डिफैनिङ्ग् यूसिङ्ग् क्रिया सो तदैव अन्योन्य संशयः अतः तन्मास्तु अपि तु यावन्तः धातुपदव्यवहार्याः तदन्यतमत्वम् सो दिस् इस् सम्थिङ्ग् विच् मे वंसकर्स् यूस् आफन् सो परिगणना ओके सो ये ये धातुत्वेन इष्टाः तान् सर्वान् परिगणय्य तेषु ये अन्तर्भूताः ते धातवः तदर्थत्वम् एव क्रियात्वम् इत्युक्त्वा इदानीं क्रियावचकनत्वे सति भादिगणपठितत्वम् इति अग्रे गच्छामः इति चेत् न भूवादयः इत्यस्य वैयर्थ्यापत्तेः तर्हि भूवादयो धातवः इति किमर्थं वक्तव्यम् इफ् इट् इस् पासिबल् टु डू यु नो टु जस्ट् सिम्प्ली लिस्ट् एव्रिथिङ्ग् दट् इस् अ धातु तर्हि भूवादयो धातवः इति सूत्रं वा किमर्थम् एवं परिगणनेनैव धातुत्वं सिद्ध्यति किल सो दट् इस् वाट् हि वास् ट्रैङ्ग् टु पोर्ट्रे अर्लियर् केवलं गणपाठेन जस्ट् बै लिस्टिङ्ग् यु केनाट् डिसैड् वट् इस् अ धातु तत्रैव यावादीनाम् अतिप्रसङ्गः अतः अन्यतमत्वं धातुत्वं भूवादयः इत्यस्य वैयर्थ्यापत्तेः तदा तु भूवादयः इति न वक्तव्यमेव भूवा आदयः इति वा पदमपि उक्त्वा तत्र आदिशब्दयोः व्यवस्थाप्रकारवाचिनोः एकशेषः इत्यादि सर्वं किमर्थम् इफ् इट् इस् पासिबल् टु लिस्ट् द धातूस् विथौट् आम्बिग्विटि सो वै वुड् यू इवन् ट्रै टु डिफैन् अ धातु अट् आल् अतः भूवादयः इत्यस्य वैयर्थ्यापत्तेः इत्यभिप्रेत्याः अस्तु इति तस्मादस्तु यथाकरम् किमस्ति आकरे व्यापारसन्तानः क्रिया सो क्रिया इस् अ कलेक्षन् आफ् व्यापारस् तद्वाचकत्वे सति गणपठितत्वं धातुत्वम् इत्येव धातोः लक्षणं वक्तव्यम् ननु सत्तादीन् फलांशान् अन्यतमत्वेन आदाय तद्वाचकत्वे सति गणपठितत्वं लक्षणम् उच्यताम् धात्वर्थत्वात् तेषां क्रियाशब्देन व्यवहारः भाष्यादौ कृतः अपि उपपत्स्यते इति चेत् न सो इदानीम् अन्यथावादं कुर्वन्ति किमुक्तम् क्रियात्वं नाम धात्वर्थत्वम् इत्युक्तम् तत्र धातूनां परिगणनं न शक्यते तदन्यतमत्वं धातुत्वम् इति धातूनां परिगणनं कृत्वा तेषु अन्तर्भूतः धातुः इति वक्तुं न शक्यते अस्तु तर्हि फलांशानां परिगणनं कुर्मः सत्तादीन् फलांशान् अन्यतमत्वेन आदाय सो वि विल् जस्ट् लिस्ट् द फल आफ् आल् द धातूस् तद्वाचकत्वे सति गणपठितत्वं लक्षणं नाम क्रियावाचकत्वं नाम सत्तादि अन्यतमफलवाचकत्वे सति गणपठितत्वं धातुत्वम् इति लक्षणं वदामः न तु क्रियावाचकत्वे सति गणपठितत्वम् इत्येव तत्र क्रियाशब्दस्य व्यापारसन्तानः इत्यर्थः न अपि तु सत्ताद्यन्यतमं फलम् इत्यर्थः क्रियाशब्दस्य क्रियते इति क्रिया इति निष्पत्त्या सत्तादीनि फलानि वदामः तेषु अन्यतमफलवाचकत्वे सति गणपठितत्वं धातुत्वम् इति वदामः तर्हि भाष्यादौ क्रियाशब्देन कथं व्यवहारः वादिगणपठितत्वं तदेव सत्ताद्यन्यतमफलवाचकत्वे सति भादिगणपठितत्वं धातुत्वम्। अन्योन्याश्रयः नास्ति बिकास् यु आर् नाट् डिफैनिङ्ग् क्रिया यूसिङ्ग् द धातु, अतः अन्योन्याश्रयः नास्ति। धातोः फलमात्रवाचकत्वमपि उपपद्यते, तदेव मीमांसकैः इष्यते, फलमात्रं वदति धातुः न तु भावनाम् इति। एवं सर्वं सम्पन्नम्। तर्हि क्रियाशब्देन व्यवहारः कथं भाष्ये कृतः? धात्वर्थत्वात् फलस्यैव क्रियाशब्देन व्यवहारः। धात्वर्थः फलं, क्रियते इति क्रिया इति निष्पत्त्या फलस्यैव क्रियाशब्देन व्यवहारः भाष्ये कृतः इति मीमांसकानां पूर्वपक्षः। इति चेत् न, ननु सत्तादीन् फलांशान् अन्यतमत्वेन आदाय तद्वाचकत्वे सति गणपठितत्वं लक्षणं, धातोः लक्षणम् इति उच्यताम्। धात्वर्थत्वात् तेषां फलानां क्रियाशब्देन व्यवहारः भाष्यादौ कृतः अपि उपपत्स्यते इति चेत् न, कुतः? अन्यतममध्ये विकल्पस्यापि विकल्पयति इति प्रयोगानुसारात् प्रवेश आवश्यकत्वेन तदर्थके वा इत्यव्यये उक्तरीत्या गणपठितत्वसत्त्वेन अतिव्याप्तेः इति। एवमपि न शक्यते, विकल्पयति इति प्रयोगः अस्ति, तस्य फलं किम्? विकल्पः। अतः यदा सत्तादीनि फलानि परिगण्यन्ते तत्र विकल्पस्यापि परिगणनम् अपेक्षितम्। इदानीं विकल्पवाचकत्वे सति गणपठितत्वं धातुत्वम् इत्युक्ते वा इति अव्ययस्य अपि धातुत्वं स्यात्, यतोहि तस्य विकल्पार्थकत्वम् अस्ति, व्यापारार्थकत्वं नास्ति। विकल्पार्थकत्वं, विकल्परूपं यत् फलं तदर्थकत्वम् अस्ति, गणपठितत्वमपि अस्ति, तर्हि धातुत्वं स्यात् इति अतिव्याप्तिः। अन्यतममध्ये विकल्पस्यापि विकल्पयति इति प्रयोगानुसारात् प्रवेशावश्यकत्वेन तदर्थके वा इत्यव्यये उक्तरीत्या गणपठितत्वसत्त्वेन अतिव्याप्तेः इति। अतः फलानां परिगणनेन धातुत्वमपि न सिध्यति, क्रियावाचनत्वे सति क्रियावाचकत्वे सति भादिगणपठितत्वं धातुत्वं, तत्र क्रियाशब्दश्च व्यापारस्यैव वाचकः। एवञ्च भावना धात्वर्थः इति सूत्रकारेण स्पष्टमुच्यते इति वैयाकरणसिद्धान्तः। सो वी विल् स्टाप् हियर्। एनी क्वेश्चन्स्? प्रश्नाः सन्ति वा? कश्चित् प्रश्नः, वाट् इस् प्रवेश आवश्यकता? सो इन् द लिस्ट् आफ् फल दे आर् सेयिङ्ग् यु विल् लिस्ट् औट् आल् द फलास् एण्ड् देन् यु विल् से वन् आफ् देम्, ऐ मीन् विच् एवर् एक्स्प्रेसस् वन् आफ् दीस् फलास् इस् अ क्रिया, दट् इस् सेल्फ् इस् क्रियावाचक। सो तत्र विकल्पः इति फलमपि प्रवेशनीयम्, सो यु शुड् आल्सो इन्क्लूड् द फल काल्ड् विकल्प। सो इस् जस्ट् गिविङ्ग् वन् एक्साम्पल्। सो विकल्प एस् अ फल should be included in that list of phalas. So when it is included, it goes to va. Since va also means vikalpa and is in the gana, it could be called a dhatu.
Swami ji?
Yes.
I just wonder, in the dhatu pata, we read the anubandha along with the dhatu, isn't it?
Yeah.
Don't we consider this in this explanation, for example, vati and other things?
Va does not have an anubandha. That is a speciality. Va is a niranubandhaka dhatu, like bhu. Both bhu and va are niranubandhakas. So, if an anubandha is there, it could be an identifier, definitely. But in this case, it's not. So, any other questions?
कारिकाः पठामः. फणिभाषितभाष्याब्धेः शब्दकौस्तुभ उद्धृतः तत्र निर्णीत एवार्थः संक्षेपेणेह कथ्यते. फलव्यापारयोर्धातुराश्रयेत तिङस्मृताः. फले प्रधानम् व्यापारस्तिङर्थस्तु विशेषणम्. फलव्यापारयोस्तत्र फले तङ्यक्षिणादयः. व्यापारे शप्ष्णमाद्यास्तु द्योतयन्त्याश्रयान्वयम्. उत्सर्गोऽयम् कर्मकर्तृविषयालव्यपर्ययात् तस्माद्यथोचितम् ज्ञेयम् द्योतकत्वन्यथागमम्. व्यापारो भावना सैवोत्पादना सैव च क्रिया. कृण्यो कर्मकतापत्तेर्न हि यत्नोऽर्थ इष्यते किन्तूत्पादनमेवातः कर्मवत्स्याद्यगाद्यपि. कर्मकर्तर्यन्यथा तु न भवेत्तदृशेरिव. निर्वर्त्ये च विकार्ये च कर्मवद्भाव इष्यते. न तु प्राप्ये कर्मणीति सिद्धान्तोऽत्र व्यवस्थितः. तस्मात् करोतिर्धातोऽस्याद्व्याख्यानन्नत्वसौतिङाम्. पक्ववान् कृतवान् पाकम् किम् कृतम् पक्वमित्यपि. किम् कार्यम् पचनीयम् चेत्यादि दृष्टम् हि कृत्वपि. किञ्च क्रियावाचकताम् विना धातुत्वमेव न. सर्वनामाव्ययादीनाम् यावादीनाम् प्रसङ्गतः न हि तत्पाठमात्रेण युक्तमित्याकरे स्फुटम्. धात्वर्थत्वम् क्रियात्वम् चेद्धातुत्वम् च क्रियार्थता. अन्योन्यसंशयस्पष्टस्तस्मादस्तु यथाकरम्. अस्त्यादावपि धर्म्यंशे भाव्येऽस्त्येव हि भावना. अन्यत्राशेषभावात्तु सा तथा न प्रकाशते. फलव्यापारयोरेकनिष्ठतायामकर्मकः. धातुस्तयोर्धर्मिभेदे सकर्मक उदाहृतः. आख्यातशब्दे भागाभ्याम् साध्यसाधनरूपता. प्रकल्पिता यथा शास्त्रे सघन्यादिष्वपि क्रमः. साध्यत्वेन क्रिया तत्र धातुरूपनिबन्धना. सिद्धभावस्तु यस्तस्याः सघन्यादिनिबन्धनः. सम्बोधनान्तम् कृत्वोऽर्थाः कारकम् प्रथमोऽवतिः. धातुसम्बन्धाधिकारनिष्पन्नमसमस्तनन्य. तथा यस्य च भावेन षष्ठी चेत्यपि तम् द्वयम्. साधुत्वमष्टकस्यास्य क्रिययैवावधार्यताम्. यदि पक्षे विवत्यर्थः कारकञ्चनन्यादिषु अन्वेति त्यज्यताम् तर्हि चतुर्थ्या स्पृहि कल्पना. अविग्रहागतादिस्था यथा ग्रामादिकर्मभिः क्रिया सम्बध्यते तद्वत्कृतपूर्व्यादिषु स्थिता. कृत्वोऽर्थाः क्त्वातुमुन्वत्स्युः इति चेत्सन्ति हि क्वचित्. अतिप्रसङ्गो नोद्भाव्योऽभिधानस्य समाश्रयात्. भेद्यभेदकसम्बन्धोपाधिभेदनिबन्धनम्. साधुत्वम् तदभावेऽपि बोधो नेह निवाद्यते. श्रीलक्ष्मीरमणम् नौमि गौरीरमणरूपिणम् स्फोटरूपम् यतः सर्वम् जगदेतद्विवर्तते. So we have crossed the halfway mark. So we have finished the 11th karika. So 10 more karikas in the prakarana. Okay. So we will see in the next class, Thursday, same time. Dhanyavadah.